श्रीरामनाथ भगवंस्तव सुप्रभातम्। श्रीपर्वतेन्द्रकुलवर्धनि सुप्रभातम्। श्रीरामलक्ष्मण हनुमदुपासितेश श्रीसेतुनाथ भगवंस्तव सुप्रभातम्। प्राच्य प्रतीच्य जलधी मिलितौ तरङ्गैः मन्द्रम् मृदङ्ग निनदांस्तनुतस्तवेह मूर्छम् तटाव निरुहामिह शाखिकासु तारम् समर्पयति मारुतवांशिकोऽयम्। गायन्त्यमे द्विजगणा श्रुतिरम्यमुच्यने च स्वरेण समुपाश्रितनैकशाखाः त्वत्सौखशायनिक सप्तऋषिव्रजायम् अभ्येति नन्दिमुख पार्षद दत्त मार्गः। भीषातवायमरुणो अर्करथम् युनक्ति तन्मुञ्चतम् तव दृगन्तरलीनमर्थम्। पूर्वम् प्रबुद्ध गिरिजातव पादपद्मे संयोज्य नैजकर पद्ममुपस्थितेयम्। तद्भूतभिक्षय विभो शयनम् विमुञ्च बुद्ध्यस्वबुद्धकमुपस्पृश नित्यशुद्ध देवी कपोलतल दर्पणमेव पश्य पश्यानताग्रसुतरूपमिमम् गजेन्द्रम्। वाघो वृषः किमथ वेदृशमङ्गलस्ते नित्यम् यदङ्कनिलयाखिलमङ्गलाम्ब। श्रीरामनाथ भुवनावन जागरूक निद्राच्छलेन तदलम् दिश दर्शनम् नः। बुद्धस्वदेव नयनोन्निशितेन तेज्य सर्वे सुरा निजकृति प्रसृता भवन्तु। धर्म्य प्रवृत्तिरपि सर्वजनोऽत्र भूयात्। ते रामनाथ वृषकेतन सुप्रभातम्। रामा सहस्रशयि मे भववार्धिसेतुम् तिष्ठन्ति बन्धुमिह ते तरुणे क्षणोत्ताः। गृह्णीष्व यात्रिकशताहृतगाङ्गतीर्थम् क्षेत्रान्तरे त्वमुपयुङ्क्ष्व शिरस्थ गङ्गाम्। गङ्गाम् पुरा त्वमदधाननु सत्यमद्य गङ्गाजलैः प्रतिदिनोपहृतैर्नयेतैः। गङ्गाधरस्त्वमिति भक्तजना गृणन्ति श्रीरामनाथ तव पावन सुप्रभातम्। रत्नाकरेण च मवोदधिना च तीर्थम् सम्मेल्य पावनतमम् परिगृह्यते पाद्याय पाशभृतसौ समुपस्थितोऽत्र। श्रीरामनाथ भवते शुभ सुप्रभातम्। अस्वप्रवन्तगिरयः कथमत्र नूनम् त्वद्वैभवेन हि गिरीशधृतः ससेतुः। क्षिप्तम् जले तव धनुर्हि बभारशैलान्। श्रीरामनाथ भवते अद्भुत सुप्रभातम्। श्रीरामनाथ भवते अद्भुत सुप्रभातम्। त्वांसैकता कृतिमकल्पयदत्र सीता तच्चालने स हनुमानपि नैव शक्तः। तत्तत्प्रपत्यनुगुणम् कुरु लाघवम् ते श्रीरामनाथ महितं तव सुप्रभातम् काश्यामरुत्सुत समाहृत विश्वलिंग दत्ताग्र पूजन समर्पण विश्वनाथ देवी सनाथ भववारिधि सेतुनाथ श्रीरामनाथ भगवंस्तव सुप्रभातम् स्वं स्वं महत्त्वमधिकृत्य मिथो विवादे विष्णोर्विधेश्च तदमृग्य शिरोऽङ्घ्रिलिङ्गम् यत्तैजसं तव बभू स विभीषणोऽत्र तस्थापकः रघुपतीडित सुप्रभातम् श्रीगन्धमादन गिरौ द्रुहिणौ नियोज्य यज्ञेषु तद्विमल नाम भृतम् शकुन्दम् भस्मापि तद्भवमदाः प्रबलम् अलघ्नम् श्रीरामलिङ्ग भगवन्त वसुप्रभातम् अन्धाय वृद्धमुनये भवता प्रदत्तम् यद्गन्धमादन गिराविह सर्वतीर्थम् तस्साइने दिशसि यौवनमक्षिताक्षम् कामेश्वरातिमहिमम् तव सुप्रभातम् दिव्यः प्रकाशितवतः परिशुद्धिमग्नेः तीर्थोत्तमस्य महिमा कथमस्तु वर्ण्यः यस्मिन् समक्षमिहते सतताक्षिपाठः सीतापतीडित तवोज्ज्वल सुप्रभातम् रामो विभीषणकृतेऽनुपरोधमिच्छन् सेतोर्मुखम् यदभिनम् निज चापकोट्या तत्राप्लुता जनततिस्तव दर्शनेच्छुः श्रीरामनाथ परमेश्वर सुप्रभातम् चापश्चतुर्दश सहस्र पलाशहायः पौलस्त्यः तदपदान परम्परायः कोटिः तव स्तपन तीर्थमखानि कोट्या रामेण राघव कृताचन सुप्रभातम् सन्त्वाञ्जनेय कपि राजनलाः परेय स्वजनो ममेति देवानरा स्वकपितीर्थकृति प्रकृष्टाः तान् पश्य ते रघुपतीश्वर सुप्रभातम् प्राक् प्रत्यगत्र हि नवाश्वगदर्भकल्पमध्ये स्थितम् स्थलमुशन्ति हि सेतुतीर्थम् सर्वम् त्वदीयमहिमाङ्किततीर्थपूर्णम् श्रीरामपूजित विभो तव सुप्रभातम् श्रीरामपूजित विभो तव सुप्रभातम् नश्यन्ति पञ्च दुरितानि महाति बाधौ पापान्तराणि च तथा लयहीनलिङ्ग अग्रे तवाभिशमनात् तव दर्शनेन श्रीरामनाथ तव पावन सुप्रभातम् तीर्थानि सन्ति कतिवान तव स्थलेऽस्मिन् तीर्थस्य तीर्थमिहते स्मृतिमामनन्ति त्वद्भावतीर्थमनुगृह्य पुनीहितः श्रीरामनाथ तव पावन सुप्रभातम् सर्वम् जलम् यदि गतन्न भवेद्धि तीर्थम् तीर्थम् त्वदन्वय गुणात् तव भक्त सङ्गात् तीर्थाप्लवे फलमपि त्वदधीनमेव ते रामनाथ वृषनाथ शुभ प्रभातम् त्वाम् राघवो भजदिहेप्सित सेतु हेतोः अस्वप्लवन्त गिरयोऽस्य तव प्रसादात् काशाम् जपन्न शिवमूर्षु जनश्शवस्य तद्राम नामतियति शरतिर्मिथो अद्वैतमेव भवतो रथवा यदुक्तम् नन्दी किमेष भगवा इति वायुसूनौ रामे च रुद्रैव मे अस्त्रबलम् तदेतत् स्यात्यम्बकस्य मम वेत्युपमामिषेण पित्रादिवाच्य परिपालन दुष्टशिक्षा शिष्टानुपालन कृतो हृतधर्ममूर्तेः स्वस्थापनार्चन कृतो रघुनायकस्य श्रीरामनाथ तव वामिघ सुप्रभातम् श्रीरामनाथ सुषमाम् तव सुप्रभाते द्रष्टुम् प्रफुल्लनयन कमले क्षणोऽसौ ब्रह्मा चतुर्वदनता बहुमन्यते स्वाम् सर्वे सहस्रनयनम् प्रति साध्य सूयाः श्रीसेतुमाधव मुखादिबुधा तथा अष्टलक्ष्म्यश्च सेतुपति पाञ्जलिपादि मुख्याः भक्तादिगन्तक इमे मिलिता समस्ताः श्रीरामनाथ परमम् तव सुप्रभातम् श्रीरामनाथ परमम् तव सुप्रभातम् अर्धे जपेन मननेन च विप्रवर्याः भर्गात्मकम् सवितृमध्य विदीप्यमानम् त्वामेव साङ्ख्य विधिना समुपासतेऽद्य श्रीरामनाथ तव दीव्यति सुप्रभातम् सन्तानकाङ्क्षिण इमे समुपस्थितास्त्वाम् तेभ्यो दिशाभिलषितानि भवन्तु पुत्राः स्वस्थापकेन पितृभक्तिगुणेषु तुल्याः श्रीरामनाथ सुगुणम् तव सुप्रभातम् यच्छारदीय नवरात्रमहार्चनाद्य रामोदशास्य विजयम् विदधे दशम्या सा शक्तिरीश तव पर्वतवर्धनीयम् श्रीरामनाथ युवयोरपि सुप्रभातम् ते मायया हि परिवेषित एष शेते विद्यामयेन विभवेन तवैव बुद्धः ते पर्वतेन्द्रकुलवर्धनि मातरस्तु ते रामनाथ युवयोरपि सुप्रभातम् आवारिधे शरणमाच दशाननान्तम् अत्यद्भुतम् सुबहुसाधिरवाण्यमेषः योजोंशभृत्तव कपीन्द्र इहास्ति गायम् श्रीरामनाथ तव मङ्गल सुप्रभातम् सम्बन्धमूर्तिरिह वाक्पतिरेष मातृभूतात्र शोणगिरिनाथ इहोपयाताः तेषाम् शृणुष्व मधुर द्रविडस्तुतिस्ते श्रीरामनाथ सुभगम् तव सुप्रभातम् श्रीरामनाथ सुभगम् तव सुप्रभातम् गीते च मन्त्रनिगमे च पटुः समुद्दुःस्वामी मखीन्द्र इह पन्तु वराणि रागे त्वत्कीर्तनम् वितनुते शृणुजाग्रिवास्त्वम् श्रीरामनाथ तव सुन्दर सुप्रभातम् अध्यग्नितीर्थतटमादिमशङ्कर श्रीधाम्नस्तदन्वयसमुज्ज्वल दीप एषः श्रीचन्द्रशेखर यदि स्वरनन्यगास्ते ಶ್ರೀಚಂದ್ರಶೇಖರ ಯದಿ ಸ್ಪದನನ್ಯಸ್ತೆ ಶ್ರೀರಾಮನಾಥ ಯುವಯಾರತಿ ಸುಪ್ರಭಾತಂ ಸತ್ಕಾಮಕೋಟಿ ವರಪೀಠ ಗುರು ಪ್ರಸಾದ ಚೈತ್ರೋತ್ಕಲಿ ಕಲಿತ ರಾಘವ ಕೋಕಿಲೋಯಂ ಉತ್ಕೂಯತೀಘ ತವ ಕೋಮಲ ಸುಪ್ರಭಾತಂ ಶ್ರೀಮಾತೃಭೂತ ಸಮುದಂಚಯ ದೃಗ್ವಿಲಾಸ ಕೈಲಾಸತಸ್ತತಯಿತೋ ರಘುನಾಥ ಸೇತೋ ಭೂರ್ಭಾರತೀಯಮಖಿಲಾಪಿತ ವೈವಗೇಹಂ ತದ್ರಕ್ಷ ರಾಷ್ಟ್ರಮಿಲವಾಹಿತ ಸರ್ವ ಯೋಧಕ್ಷೇಮಂ ಸದಾ ವಿಜಯತಾಂ ಶಿವಮಸ್ತು ಸರ್ವಂ ಯೋಗಕ್ಷೇಮಂ ಸದಾ ವಿಜಯತಾಂ ಶಿವಮಸ್ತು ಸರ್ವಂ ಶಿವಮಸ್ತು ಸರ್ವಂ ಸುಪ್ರಭಾತ ಜನಿತ ಹೃದಯಃ ಸಮಸ್ತ ಲೋಕಾ ಭವಂತು ಸುಖಿನೋ ವಿರುಜ ಸುಭಿಕ್ಷಾಃ ಹಿಂಸಾಂ ವಿಹಾಯ ವಿವಿಧ ಧೃತ ಮೈತ್ರ ಭಾವಾಃ ಶ್ರೀರಾಮನಾಥ ಕೃಪಯಾ ದಿಶ ವಿಶ್ವ ಶಾಂತಿಂ ಶ್ರೀರಾಮನಾಥ ಕೃಪಯಾ ದಿಶ ವಿಶ್ವ ಶಾಂತಿಂ ದಿಶ ವಿಶ್ವ ಶಾಂತಿಂ